इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य नवदिल्ल्याः राष्ट्रपति भवने नागरिक अलंकरण समारोहे पद्म पुरस्कारान् प्रदास्यति। राष्ट्रपतिः मुर्मू पूर्व उपराष्ट्रपतिने एम वेंकैया नायडू इत्यस्मै, भरतनाट्यम नृत्यांगनायै डॉ पद्मा सुब्रह्मण्यम इत्यस्यै च पद्म विभूषण पुरस्कारं प्रदास्यति। बिन्देश्वर पाठकः मरणोपरान्तेन पद्म विभूषण पुरस्कारः प्रदीयते। एतस्मिन् क्रमे अभिनेत्रे मिथुन चक्रवर्तिने गायिकायै उषा उथुपाय च पद्मभूषण पुरस्कारः प्रदीयते। अपि च अन्येष् पद्मभूषण पुरस्कार विजेतृष् जनहितैषी डॉ सीताराम जिन्दल, हृदय रोग विशेषज्ञ डॉ तेजस मधुसूदन पटेल, उत्तर प्रदेशस्य पूर्व राज्यपाल राम नाइकश्च सम्मिलिता विद्यन्ते। मणिपुर राज्ये अद्य आन्तरिक मणिपुर संसदीय क्षेत्रस्य एकादश मतदान केन्द्रेष् पुनर्मतदानं भविष्यति। भारत निर्वाचनायोगेन राज्य निर्वाचन प्राधिकरणं एतेषु मतदान केन्द्रेषु अद्य प्रातः 7 वादनतः सायं 5 वादनं यावत् मतदान निष्पादनाय निर्दिष्टम्। अवधेयं वर्तते यत् मणिपुरे शुक्रवासरे लोकसभा निर्वाचनस्य प्रथमचरणस्य मतदानावधौ एतेषु 11 मतदान केन्द्रेषु जनसम्मर्द हिंसा, ईवीएम यन्त्राणां विनष्टीकरणम् इत्यादयः तत्र अवलोकिताः। भारतस्य शुद्ध प्रत्यक्ष ऋण संग्रहणं विगत वित्तीय वर्षस्य 16.64 लक्ष कोटि रूप्यकाणां अपेक्षया 17.5% संवर्ध्य 19.58 लक्ष कोटि रूप्यकाणि जातानि। यद्धि अस्य वित्तीय वर्षस्य आयव्यय अनुमानात् 7.4% अधिकम् अस्ति। विगताय वित्तवर्षाय प्रत्यक्ष ऋण संग्रहणस्य आयव्यय अनुमानं 18.23 लक्ष कोटि रूप्यकाणि निश्चितानि आसीत्। सामान्य निर्वाचनस्य द्वितीय चरणस्य मतदानाय 3 दिवसानि एव अवशिष्टानि। एतदर्थं राजनैतिक दलानां नेतारः स्वीय प्रत्याशिनां समर्थने नैरन्तर्येण सप्रयासं जनसभाः मार्ग प्रदर्शनानि च कुर्वन्तः सन्ति। द्वितीय चरणेऽस्मिन् अस्य मासस्य 26 दिनांके केरलस्य 20 आसनानि, कर्णाटकस्य 14 आसनानि, राजस्थानस्य 3 आसनानि, उत्तरप्रदेश महाराष्ट्रयोः 8 आसनानि, मध्यप्रदेशस्य 7 आसनानि, असमस्य 5 आसनानि, बिहारस्यापि 5 आसनानि, पश्चिमबंगालस्य 3, छत्तीसगढस्य 3, त्रिपुरा जम्मू कश्मीरयोः 1 आसनं समेत्य द्वितीय चरणे मतदानानि भविष्यन्ति। भाजपेति दलस्य वरिष्ठनेता प्रधानमन्त्री नरेन्द्र मोदी राजस्थान राज्ये जालौर बांसवाड़ा जनपदयोः नैर्वाचनिक सभाः कृतवान्। अत्रावसरे असौ भणितवान् यत् देशाय स्थिर प्रशासनस्य आवश्यकता दरीदृश्यते, येन हि आधारभूत संरचनानां सौविध्यानां च विकासो भवेत्, अपि च यूनां स्वप्नानां आवश्यकतानुसारं योजनानां निर्माणं भवेत्। असौ अकथयत् यत् एषः देशस्य सार्वकालिक विकासाय दृढसंकल्पेन सह कार्यं समाचरति। आईपीएल इत्यस्यां क्रिकेट स्पर्धा मालिकायां ह्यः रात्रौ चण्डीगढस्य महाराजा यादवेन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे गुजरात टाइटन्स दलं पंजाब किंग्स दलं 3 क्रीडकैः पराजितवत् इति वार्ताः।